ॐ नमश्चण्डिकायै ध्यानम् या चण्डी मधुकैटभादिदैत्यदलनी या माहिषोन्मूलिनी या धूम्रेक्षणचण्डमुण्डमथनी या रक्तबीजाशनी शक्ति शुम्भनिशुम्भदैत्यदलनी या सिद्धिदात्री परा सा देवी नवकोटिमूर्तिसहिता मां पातु विश्वेश्वरी ॐ बन्धुककुसुमाभासां पञ्चमुण्डाधिवासिनीं स्फुरच्चन्द्रकलारत्नमुकुटां मुण्डमालिनीं त्रिनेत्रां रक्तवसनां पीनोन्नतघटस्तनीं पुस्तकं चाक्षमालां च वरं चाभयकं क्रमात् दधतीं संस्मरन्नित्यम् उत्तरां नायमानिताम् ॐ महाकाली ध्यानम् खड्गं चक्रगदीषु चापपरिधान् शूलं भुशुण्डीं शिरः शङ्खं सन्दधतीं करैस्त्रिनयनां सर्वाङ्गभूषावृतां यां हन्तुं मधुकैटभौ जलजभुस्तुष्टावसुप्ते हरौ नीलाश्मद्युतिमास्य पाददशकां सेवे महाकालिकां ॐ महालक्ष्मी ध्यानम् अक्षस्त्रपरशुं गदेषु कुलिशं पद्मं धनुकुण्डिकां दण्डं शक्तिमसिं च चर्मजलजं घण्टां सुराभाजनम् शूलं पाशसुदर्शने च दधतीं हस्तैः प्रबालप्रभां सेवे सौरिभमर्दिनी मिह महालक्ष्मीं सरोजस्थिताम् ॐ महासरस्वतीध्यानम् घण्टाशूलहलानि शङ्खमुसले चक्रं धनुसायकं हस्ताब्जैर्दधतीं घनान्तविलसच्छीतांशु तुल्यप्रभां गौरीदेहसमुद्भवां त्रिजगतामाधारभूतां महां पूर्वामत्र सरस्वतीमनुभजे शुम्भादिदैत्यार्दिनीम्